सर्वेभ्यो नमः, स्वागतम्। गतवर्गे वयं सङ्ख्यानां विषये पठितवन्तः। अद्य किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छामः। अपि किञ्चित् अद्य विभक्तेः विषये पठामः, अस्तु। प्रथमतया वयं गणयामः सङ्ख्यानाम्, अस्तु। तत्र प्रश्नाः सन्ति वा सङ्ख्यानां विषये? नास्ति चेत् वयं एकवारं गणयामः, अस्तु। नरसिंहमहोदय, भवान् वदति वा? वयं दशं दशं वदामः, भवान् एकतः दशपर्यन्तं वदतु।
एकं द्वे त्रीणि चत्वारि पञ्च षष्ट षष्टि अष्ट अष्टमी नवमि दशमी एकादश परि दशमी
द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः।
एकविंशति द्वाविंशति त्रयोविंशति चतुर्विंशति पञ्चविंशति षष्टाविंशति सप्तविंशति अष्टविंशति नवविंशति त्रयो त्रिंशत्
एकत्रिंशत् द्वात्रिंशत् त्रयोत्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत्
एकचत्वारिंशत् द्वाचत्वारिंशत् त्रयोचत्वारिंशत् पञ्चत्रयोविंशत् षष्टत्रयोविंशत् सप्तत्रयोविंशत् अष्टत्रयोविंशत् नवत्रयोविंशत् पञ्चाशत्
सप्तचत्वारिंशत् षट्चत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः।
एकषष्टिः द्विषष्टिः इति त्रिषष्टिः द्विषष्टिः त्रिषष्टिः चतुष्षष्टिः पञ्चषष्टिः सप्त षष्टिः सप्त अष्टषष्टिः नवषष्टिः सप्ततिः
एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः अशीतिः।
अशीतिः इस् एटि ओके। एकशीतिः द्वा एकाशीतिः द्वाशीतिः त्रयशीतिः चतुर्शीतिः पञ्चाशीतिः षड् शीतिः सप्तशीतिः अष्टाशीतिः नवशीतिः नवतिः
नवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्वतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा अस्तु अद्य किञ्चित् अग्रे गच्छामः तत्र गीतासोपाने पुटसङ्ख्या षष्टिः तत्र अभ्यासं करोतु इति अस्ति नरसिंहमहोदय भवान् तत्र पठति वा
सो एतानि वाक्यानि
एतानि सावधानतया पठत
ओके
can you share the screen bhagini
oh asto asto kshamyatam ekanimshah
can I go ahead I have book in front
ah asto mohi bhavan patato aham screen share karomi
krishnah arjunam upadishati
that
is krishnah arjunasya upadesham karoti
अस्तु अत्र किम् एकनिमिषं महोदय अत्र किमस्ति चेत् तत्र उपदिशति तत्र उपदेशं करोति अत्र किमस्ति चेत् क्रियापदस्य वयं विभागं कुर्मः तत्र उपदिशति इति अस्ति चेत् किं करोति इति तत्र उपदेशं करोति इति भागद्वयं कुर्मः अस्तु आम् नरसिंहमूर्ति महोदय भवान् अग्रे पठति वा
दट् इस् रथं स्थापयति
न न अत्र प्रबन्ध
प्रबन्धाज्ञः गीताव्याख्यानं शृण्वन्ति कुटु प्रबन्धनाज्ञाः गीतावाक्यानस्य श्रवणं कुर्वन्ति सो नेक्स्ट् वन् इस् एवमेव रथं स्थापयति सो रथस्य स्थापनं करोति बेरिं वादयति बेर्याः वादनं करोति
अत्र किमस्ति चेत् वयं विभागं कुर्मः चेत् कर्मपदस्य षष्टिविभक्तिः भवति तत्र रथं कृष्णः रथं स्थापयति इति अस्ति चेत् कृष्णः रथस्य स्थापनं करोति
रथस्य स्थापनं करोति
तत्र रथम् इति आसीत् कर्मपदं षष्टिविभक्त्यां भवति चेत् रथस्य इति भवति तदर्थं रथस्य स्थापनं करोति स्थापयति इति अस्ति चेत् कर्मपदं रथम् इति अस्ति स्थापनं करोति इति अस्ति चेत् तत्र कर्मपदं स्थापनं पूर्वं किं कर्मपदम् आसीत् तत् षष्टिविभक्ति रूपं भवति
सो कर्मपदं फ्रम् द्वितीया विभक्ति टु षष्टिविभक्ति
अस्तु
सो कृष्णः रथं रथस्य स्थापनं करोति कृष्णः देव्याः वादनं करोति. सो कृष्णः हृदयस्य विदारणं करोति. सो कृष्णः इन्द्रियाणां प्रेरणं कुर्वन्ति. ओके. कुरुक्षेत्रस्य
प्रवेशं, कुरुक्षेत्रस्य प्रवेशं करोति.
अस्तु, अत्र
विभक्ति
महोदय
फार् संथिङ्ग् इण्ट् इट् षष्ठी इस् मतलब्
It is possessive case, Mahode. Shashti Bhakti is possessive case.
Hmm. No, Pravesham Karoti. The Kurukshetrasya. Well, this something not gelling well to me actually. I'm not able to understand the transformation. Kurukshetram Pravishati. And Kurukshetrasya means Kurukshetra, well, that is of Kurukshetra, isn't it? If we convert it, Kurukshetrasya means?
Kurukshetrasya Pravesham
Karoti. Well, Kurukshetrasya means what? In English it is of Kurukshetra, isn't it? Entering Kurukshetra, Pravesh, Pravishati means it is entering Kurukshetra. Am I right?
Punaha vadatu?
Kurukshetram Pravishati, that means Krishna is entering Kurukshetra. Isn't it? Kurukshetrasya Pravesham, I'm not able to understand it, the change.
No, the meaning of the sentence is basically same, Mahodaya. We are not, we are just changing the form of the word, but we are not changing the meaning.
What I am feeling is, here the form is changing, even meaning also is changing. That's what I am feeling. Meaning has to be same only, no? We are only changing the form.
Yes, if you say, for example, if you say, Aham Apanam Gacchami, then or if
what I want to say is ki Krishna is entering Kurukshetra, that is Krishna Kurukshetram Pravishati. But what I am getting the feeling is ki Krishna Kurukshetrasya Pravesham Karoti. Means Krishna is making Kurukshetra enter somewhere.
No.
That's what I am getting the meaning here.
That is not the meaning, Mahodaya. It says he is doing the entering into Kurukshetra.
Yes, that is correct. First one is Kurukshetram Pravishati, that is Krishna.
No, so first one is he enters into Kurukshetra. Second one is he does the entering into Kurukshetra. So what all you are doing is, instead of saying, for example, if you say patati, like reading, you are saying he is doing the act of reading. That is all. So Pravishati enters. So
right.
Pravesham Karoti, act of entering. That is all, Mahodaya. The meaning does not change.
That is it. What I am saying is, I am having a problem in Kurukshetrasya. Means he is making Kurukshetra enter somewhere. That's what I am saying.
No. Saha Kurukshetrasya Pravesham Karoti.
I I am getting that. That's what I was confused. Rather, I would say I am confused.
इदानीम् अभ्यासं कोष्टकात् उचितं पदं चित्वा वाक्यं पूरयत. सुरेन्द्र महोदय, भवान् आरम्भं करोतु.
लिटिल् बिट् लौड् अप् प्लीस्.
योर् वाल्यूम् इस् वेरि लो महोदय. Mahodaya, just one second. Can you go into your for your pre-con?
Main. I'd have to switch off the this one.
Blue. This is better, Mahodaya. Astu.
Yeah.
Arambham karoto.
Dwaram udghatayati. द्वारस्य उद्घाटनं करोति. अतिथिं सत्कारोति. अतिथेः सत्कारं करोति. अश्वान् निबध्नन्ति. अश्वानां निबन्धनं करोति. ध्वजं प्रतिष्ठापयति. ध्वजस्य प्रतिष्ठापनं करोति. कीर्तिम् अर्जयामि. कीर्तेः अर्जनं करोमि. शत्रुम् आह्वयसि. शत्रोः आह्वयसि. शत्रुम् आह्वयसि. शत्रोः आह्वानं करोति. करेक्ट्. अवधेयं सञ्जयः धृतराष्ट्रं बोधयति.
अस्तु, अत्र सञ्जयः धृतराष्ट्रं बोधयति. अस्तु, अनन्तरं विभागं कुर्मः चेत् सञ्जयः धृतराष्ट्रस्य, अत्र एव कर्मपदस्य षष्टिविभक्ति भवति. अत्र कर्मपदं षष्टिविभक्ति न, परन्तु वी आर् चेञ्जिङ्ग् द कर्म इन् इन् द प्रीवियस् सेण्टेन्स् धृतराष्ट्रं वास् द कर्मपदं. नौ द वर्ड् दट् वास् द कर्मपदं बिकम्स् षष्टिविभक्तिः, बट् इट् इस् नाट् द कर्मपदम्.
In second sentence, if it is not karma padam shakti vibhakti, then what it is actually?
If it is not karma padam, kartripadam or kriya padam, Mahodaya, it is just another word.
Exactly, this is what I was I wanted to convey in that group. Exactly what now that example is coming in front of us.
Dhritarashtrasya बोधनं करोति.
Means if we are using Dvitiya Vibhakti, then Kriyapad can be club together or simple, that is both dayati, the kriya pada. But if you have to use shakti vibhakti, then it has to be divided. Am I correct? Forgive me? Here, karma pada we are changing from dvitiya vibhakti to shasti vibhakti, and then only we can separate the kriya, matlab kriya pada or vibhajya, that's what it is, vibhajya. Or we are matlab kriya padasya vibhagam krutva, that's what. Okay.
अस्तु, अत्र प्रश्नाः सन्ति वा?
नो.
अस्तु, अत्र अभ्यासं कुर्मः. अस्तु, अधः लिखितानि वाक्यानि यतोदाहरणं परिवर्त्य लिखत. अस्तु, प्रथमः अस्ति एषः घटः इति अस्ति, घटस्य पूरणं करोति. विभज्य प्रयोगः न कुर्मः चेत् किं भवति? घोषः
हृदयस्य विदारणं करोति. कृष्णः रथस्य स्थापनं करोति. वयम् इन्द्रियाणां प्रेरणं कुर्मः. करेक्ट् भगिनि? इन्द्रियाणां. ओके. सो अर्जुनः गीतां मृता गीतामृतस्य पानं करोति. दुःशासनस्य मरणं करोति. सो सहदेव शकुनिः, सो इट् इस् सहदेवः शकुनेः मरणं करोति. इट् करेक्ट् भगिनि? शकुनेः शकुनेः हननं करोति. एषः इन्द्रियाणां संयमनं करोति. कृष्णः गोपिकानां वस्त्राणाम् अपहरणं करोति. योगी सर्वत्र ईश्वरस्य ईक्षणं करोति. पुण्यकृत् पापानां तरणं करोति. अहं श्लोकस्य अनुवादं करोमि.
समीचीनम्. अस्तु, अत्र क्रियापदानि विभज्य लिखत.
अलङ्करोति, अलङ्कारं करोति. परिचिन्तयन्ति, परिचिन्तयति. परिचिन्तं करोति. करेक्ट् भगिनि?
आम्.
परिचिन्तनं,
परिचिन्तानां करोति. हा, रैट्. बोधं करोमि.
बोधनं करोति.
बोधनं करोति, सारि.
अनन्तरं
पिबति, पानं करोति.
प्रक्षालयसि, प्रक्षालयं करोति.
निर्गच्छति, निर्गमनं करोति.
प्रविशत, प्रवेशं करोति.
परिभ्रमति, परिभ्रमणं करोति.
अनुसरति, अनुसरणं करोति.
स्मरणं करोति.
चिनन्ति, छेदनं करोति.
अभिनन्दनति, अभिनन्दनं करोति.
आवृणोति. I'm not able to get this word.
आवरणम्,
आवरणं करोति. सुवन्नि, सुवन्ति, स्तवनं करोति.
समीचीनम्.
शोषयति, शोषणं करोति. सङ्गृह्णति, गायति, गायनं करोति, गानं करोति. ओके,
गानं करोषि.
अस्तु, अनन्तरं
नमनं करोषि नमसि दहनं करोति सः
दहति नेक्स्ट इज संग्रहणं कुर्मः इति द्विवचनं संग्रहणं कुर्मः दट् इस् बहुवचनं सङ्गृहिणीमः भगिनि सङ्गृहिणी मह कुर्मः इस् इट् करेक्ट् भगिनि सङ्गृहिणीमः सङ्गृहिणीमः अधिगमनं करोति अधिगमनं गमनं कमिङ्ग् आगच्छति एषः आगच्छति गच्छ अधिगच्छति भगिनि गमनं एषः अधिगच्छति करोति गच्छति अधिगमनं इस् इट् करेक्ट् भगिनि अधिगच्छति
आम् अधिगच्छति समीचीनमेव महोदय
नेक्स्ट् इस् जीवनं कुरुत सो अगेन् इट् इस् इन् द्विवचनं कुरुत जीवनं कुरुत जीवनं जीवत करेक्ट् भगिनि जीवत दट् इस् जीवनं जीवत जीवनं जीवनं जीवत कुरुतः जीवत कुरुत् जीवतः जीवत कुरुत् चिन्तनं कुरुतः चिन्तनं कुरुतः इस् इट् बहुवचनं भगिनि कुरुतः कुरुतः चिन्ता चिन्तनम् ऐ थिङ्क् चिन्ता बो शुड् म्याच् नो चिन्तयतः कुरुतः इस् इट् करेक्ट्
आं चिन्तयतः
चिन्ता कुरुतः अन्वेषणं कुर्वः अन्वेषणं समथिङ्ग् लैक् कुर्वः इति सारि द्विवचनं कुर्वः कुर्मः something like anveshanam something yavaha will come, anveshayavaha kurvaha, anvesha, anvesha, what is that correct one, anvesha, anveshaya, what is the correct word, Bhagini, anveshanam, anvesha, anvesha, anveshayavaha, something.
अन्वेषयावः
कुर्वः सो परिहरणं कुर्वन्ति कुर्वन्ति बहुवचनं सो परिहरणं 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 परिहरन्ति कुर्वन्ति परिहरन्ति कुर्वन्ति ऐ एम् ट्रैङ्ग् टु मेच् अन्ति बोत् द सैड्
फस्ट् मेक् इट् इन् टु जस्ट् रेग्युलर् फार्म् जस्ट् लैक् एकवचनं प्रथमपुरुष देन् यू केन् मेक् इट् इन् टु वट् एवर् सब्जेक्ट् मेक् इट्
परिहरन्तः परिहरन्ति कुर्वन्ति छेदनं करोति छेदनं अबोव् इट् वास् देर् छेदनं चिनन्ति करोति भ्रमणं करोमि चिनन्ति करोति सा
When we are saying sa chinati means there will not be karoti again.
Sa chinati, okay, sa chinati, correct. Brahmanam karomi. Brahmanam, sa brahmati. Sa brahmati.
Brahmati, yes.
Brahmati.
अर्चनं करोति भवान्
भवान्
अर्जन
अर्जनम् अर्जनम् अर्जनं करोति भवान् अर्जयति अर्जनं करोति भवान् अर्जयति
समीचीनम् अस्तु इदानीम् एतानि वाक्यानि
यतो उदाहरणं वाक्यानि रचयत् वचनम् उदाहरणं वचनं करोमि श्लोकः अहं श्लोकस्य वचनं करोमि स्मरणं करोति दट्स् वाट् दे गिव् वन् अहं सो कः मम स्मरणं करोति लेखनं कुर्मः इतिहास अहम् इतिहासस्य लेखनं करोमि करेक्ट् भगिनि पूजनं कुर्वन्ति देवताः अहं देवतस्य पूजनं सोरि पूजा करोमि सोरि अहं तर्हि देवताः बहुवचनं देवतानाम् अहं न अहं विल् गो टु मम अहं देवतानां देवतानां न भगिनि ऐ नीड् हेल्प् वाट् इस् देवत अहं देवतानां ऐ थिङ्क् वि केन् ट्रान्स्लेट्
पूजनं कुर्वन्ति देवतानां पूजनं कुर्वन्ति
पूजनं कुर्वन्ति सो वी हाव् टु यूस् अहम् आर् वाट् वी हाव् टु यूस् मम अहम् आवां देवतानां
पूजनं कुर्वन्ति इति अस्ति तर्हि ते देवतानां पूजनं कुर्वन्ति
देवतानाम् ओके ओके धारणं करोषि वस्त्रं वस्त्रस्य धारणं करोषि वस्त्रस्य धारणं करोषि ओन्लि दट् आर्जनं सम्थिङ्ग् इस् आफरिङ्ग् भगिनि आर्जनं आर्जनं करोति आर्जनम् आर्जनं करोति अर्निङ्ग् अर्निङ्ग् ओके ओ ओके ओके गाट् इट् गाट् इट् ज्ञानं ज्ञानम् इस् ज्ञानस्य ओके ज्ञानस्य आर्जनं करोति that is in search of knowledge jnana ahvanam kurvanti sarathihi so bahuvachanam sarathe सारथिः सारथे आह्वानं कुर्वन्ति सारथिः सारथे सारथेः सारि सारथे नै सारथेः आह्वानं कुर्वन्ति सुबहुवचनं स्थापनं करोति
रथस्य स्थापनं करोति रथस्य स्थापनं करोति
करेक्ट् रथस्य स्थापनं करोति विदारणं करोति हृदयानि हृदयानां अर्लियर् किम् अकरोति हृदय हृदयानां विदारणं करोति विदारणं करोति उद्घाटनं उद्घाटनं करोषि कार्यक्रमाणाम् उद्घाटनं करोषि कार्यक्रमाणां
अस्तु अत्र प्रश्नाः सन्ति वा
भगिनि वन् क्वशन् फार् मी suppose if you want to say 2 1/2 2 1/4 2 3 4 how do you say in Sanskrit are you going to learn in future or
katamah ditiyah iti
2 1/2 2.5 suppose you want to say 2 1/2 wow number sister
agre vayam patamah
okay okay right thank you
अस्तु, अत्र प्रश्नाः सन्ति वा? अस्तु, क्षम्यतां, वयम् अत्र स्थगयामः. अहम् एकं अद्य एका पर्फार्मेन्स् आसीत्, तर्हि तदर्थमेव आरम्भं कक्ष्यायाः आरम्भम् अर्धघण्टायाः अनन्तरम् आसीत्. इदानीमपि अन्यत् अस्ति, क्षम्यताम्, अत्र स्थगयामः वा?
क्षम्यताम्,
धन्यवादः, नमस्कारः.